इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। आदौ मुख्य वार्ताः। बांग्लादेशे प्रचाल्यमान छात्र विरोध प्रदर्शनस्य मध्ये बांग्लादेशीय प्रधानमंत्री शेख हसीना देशस्य प्रधानमंत्री पदात् त्यागपत्रं दत्त्वा देशं त्यक्त्वा सुरक्षित स्थानं प्रस्थितवती। बांग्लादेशस्य सेना प्रमुखः घोषितवान् यत् देशस्य संचालनाय अंतरिम सर्वकारस्य निर्माणं भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य द्विदिवसीय आधिकारिक यात्रायाः कृते फिजी देशं प्राप्तवती। भारतस्य स्वास्थ्य क्षेत्रे विगत दशवर्षेषु वित्त विनियोगे चतुष्षष्ठ्यधिक एकशतं प्रतिशतं वृद्धिः पंजीकृता। अमेरिका देशेन इजराइल विरुद्धं ईरान हिजबुल आततायी संघयोः संभाव्य प्रतिकार्याणां विषये जी सप्त इत्यस्य विदेश मंत्रिभ्यः कठोर चेतावनी प्रसारिता। अपि च पेरिस ओलंपिक क्रीडायां शटल बैडमिंटन इत्यस्य पुरुष एकल क्रीडायां भारतस्य लक्ष्यसेनः मलेशिया देशस्य जी जिया ली इत्यनेन सह क्रीडति। अथवार्ताः विस्तरेण। समाचार सूत्रानुसारं प्रचाल्यमान छात्र विरोध प्रदर्शनस्य मध्ये बांग्लादेशीय प्रधानमंत्री शेख हसीना देशस्य प्रधानमंत्री पदात् त्यागपत्रं दत्त्वा सैन्य हेलीकॉप्टर यानेन सुरक्षित स्थानं प्रति प्रस्थितवती। सेना प्रमुखः जनरल वाकर उज जमानः अद्य देशस्य संचालनाय अंतरिम सर्वकारस्य निर्माणं भविष्यति इति घोषितवान्। बांग्लादेशस्य वार्तामाध्यमेषु उक्तं यत् ढाकानगरे प्रधानमन्त्रिणः आधिकारिक निवासस्थाने शतशः आन्दोलनकारिणः आक्रमणं कृतवन्तः, अथ प्रधानमन्त्री हसीना सुरक्षितस्थानं प्रति प्रस्थितवती। दूरदर्शने राष्ट्रं सम्बोधयन् बांग्लादेशस्य सेनाप्रमुखः जनरल वाकर उज जमानः देशवासिनां कृते धैर्यं धारयितुं शान्तिं च स्थापयितुम् आग्रहं कृतवान्। रविवासरे आरक्षिणाम् अथ आन्दोलनकारिणां मध्ये संजात संघर्षे प्रायः शतं जनाः मृताः, सहस्राधिका च व्रणिताः आसन्। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य द्विदिवसीय आधिकारिक यात्रायाः कृते फिजी देशं प्राप्तवती। अवधेयमस्ति यत् अद्यावधि भारतस्य राष्ट्रपतेः फिजी देशस्य इयं प्रथमा यात्रा वर्तते। फिजी देशस्य उपप्रधानमंत्री विलियम गवोका तथा फिजी देशस्य भारतीय उच्चायुक्तः पीएस कार्तिकेयन च राष्ट्रपतेः भव्यं स्वागतं कृतवन्तौ। राष्ट्रपतिः द्रौपदी मुर्मुः अगस्त मासस्य षट् सप्तम दिनांकेषु सुवानाडी नगरयोः आधिकारिक संगतिषु भागं ग्रहीष्यति। राष्ट्रपतिः मुर्मुः फिजी देशस्य राष्ट्रपतिना विलियम कटो निवेरे इत्यमुना तथा प्रधानमन्त्रिणा सिटी वेनी रबुका इत्यमुना सह द्विपक्षीय समागमं करिष्यति। राष्ट्रपतिः फिजी संसदमपि सम्बोधयिष्यति। सासुवा नगरस्य गांधी स्मारक महाविद्यालयस्य नादी नगरस्य श्री शिव सुब्रह्मण्य स्वामी मन्दिरस्य च दर्शनं करिष्यति। अस्याः यात्रायाः उद्देश्यमस्ति यत् द्वीपराष्ट्रेण सह अस्माकं ऐतिहासिक सम्बन्धस्य सुदृढीकरणं वर्तते। प्रधानमन्त्री श्री नरेन्द्र मोदी उक्तवान् यत् तदीय सर्वकारः जम्मू कश्मीरस्य तथा लद्दाखस्य च जनानां कृते कार्यं कुर्वन् आगामिकाले तेषाम् आकांक्षाः अपि पूरयिष्यति। सामाजिक संजालीय माध्यमेन श्रीमोदिना भणितं यत् गतवर्षे अद्यैव अगस्त मासस्य पञ्चमे दिनांके संसत् सदनेन सप्तत्यधिक त्रिशतं पञ्चत्रिंशत् अ इति अनुच्छेदयोः च निरसनस्य निर्णयः कृतः, यत् राष्ट्रस्य इतिहासे अविस्मरणीयः क्षणम् आसीत्। सः अवदत् जम्मू कश्मीरे लद्दाखे च प्रगतेः समृद्धेः च नूतन युगस्य आरम्भः आसीत्। प्रधानमन्त्रिणा उक्तं यत् एतेषु स्थानेषु भारतस्य संविधानम् अक्षरशः संविधान निर्मातॄणां महापुरुषाणां महिलानां च दृष्टेः अनुरूपं कार्यान्वितम् अभवत्। सः अवदत् यत् अनेन सह महिलानां युवानां परिशिष्टवर्गाणां आदिवासी समुदायानां च कृते सुरक्षा गौरवः अवसराश्च प्राप्ताः, ये च विकासस्य फलात् वञ्चिताः आसन्। मोदी अवदत् यत् सहैव दशकैः जम्मू कश्मीरे आवृतं भ्रष्टाचारं स्थगितम् अपि अभवत्। अन्यत्र भारतस्य इलेक्ट्रॉनिक्स निर्यातः अधुना देशस्य शीर्ष त्रिषु निर्यातेषु अन्यतमः अभवत् इति प्रधानमन्त्री श्री नरेन्द्र मोदी आनन्दं प्रकटितवान्। विद्युदीय तथा भारतीय प्रौद्योगिकी मन्त्रिणः अश्विनी वैष्णवस्य सामाजिक संजालीय सन्देशम् उद्धृत्य श्रीमोदी अवदत् यत् इलेक्ट्रॉनिक्स क्षेत्रे भारतस्य पराक्रमः देशस्य अभिनव युवाशक्त्या चालितः वर्तते। सः अवदत् भारतदेशः आगामिषु कालेषु निरन्तररूपेण एतां गतिं सुस्थापयितुं प्रतिबद्धः अस्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय स्वास्थ्य परिवार कल्याण मन्त्रिणा जगत प्रकाश नड्डा वर्येण उक्तं यत् मोदी सर्वकारेण स्वास्थ्य क्षेत्रे सर्वाधिक प्राथमिकता दत्ता। लोकसभायाम् ऐषमः वर्षस्य स्वास्थ्य परिवार कल्याण मन्त्रालयस्य नियन्त्रणाधीनस्य अनुदानस्य क्रियान्वयनस्य विषये चर्चायाः उत्तरं यच्छन् केन्द्रीय मन्त्री सूचितवान् यत् स्वास्थ्यक्षेत्रे त्रयोदश चतुर्दशोत्तर द्विसहस्रतमे वर्षे वित्तविनियोगः अष्टसप्तत्यधिक द्विशतोत्तर त्रयस्त्रिंशत् सहस्रं कोटिरूप्यकाणि आसन्, तदनु प्रकृतं वर्धित्वा अष्टपञ्चाशदधिक नवशतोत्तर नवति सहस्र कोटिरूप्यकाणि अभवन्। अनेन सह तुलनायां स्वास्थ्यक्षेत्रे विगत दशवर्षेषु वित्तविनियोगे चतुष्षष्ट्यधिक एकशतं प्रतिशतं वृद्धिः पञ्जीकृता। केन्द्रीय पर्यावरण वन जलवायु परिवर्तन मन्त्री श्री भूपेन्द्र यादव अद्य उक्तवान् यत् केन्द्र सर्वकार कर्णाटकस्य आदिचुञ्चनगिरि केरलस्य चूलान्नूर जनपदं च मयूर अभयारण्यरूपेण घोषितम्। दिल्लीनगरे मयूरस्य मृत्योः विषये प्रश्नस्य उत्तरे सः लोकसभां सूचितवान् यत् मयूराः तापघातेन मृताः आसन्। मन्त्री उक्तवान् यत् राष्ट्रिय पक्षिणः संरक्षणार्थम् अनेके उपायाः क्रियन्ते तथा च मन्त्रालयेन मयूराणां प्रजनन संरक्षण केन्द्राणि अपि स्थापितानि सन्ति। श्रम उद्योग मन्त्रालयेन सूचितं यत् गतमासस्य अन्ते यावत् असंघटित क्षेत्रे पञ्चाशत् लक्षाधिकाः श्रमिकाः प्रधानमन्त्री श्रमयोगी मानधन योजनायाः कृते पञ्जीकरणं कृतवन्तः। योजना अष्टादशतः चत्वारिंशत् वर्षाणाम् आयुर्वर्गस्य असंघटित क्षेत्रस्य कार्यकर्तृभ्यः वृद्धावस्था सुरक्षां प्रददाति। नवदशोत्तर द्विसहस्रतमवर्षस्य फेब्रवरी मासे अस्य आरम्भः अभवत्। श्रम उद्योग राज्यमन्त्री शोभाकरन्दलाजे लिखितरूपेण उत्तरे उक्तवती यत् हरियाणाराज्ये अधिकतमं श्रमिकाणां पञ्जीकरणं कृतमस्ति। भारतीय ऋतुविज्ञान विभागेन अनुमोदितं यत् अद्य पश्चिम राजस्थाने अतोपि अतिवृष्टिः गुजरात महाराष्ट्रयोः अतिवृष्टिः च भविष्यति। जम्मू कश्मीरे उत्तरप्रदेशे हरियाणाराज्ये पंजाबे तमिलनाडुराज्ये च अतिवृष्टेः संभावना वर्तते। विभागेन इदमपि सूचितं यत् उत्तर पश्चिम भारते तथा पूर्व भारते अपि आगामि त्रिचतुर्दिनेषु अतिवृष्टिः भविता। विभागेन उक्तं हिमाचल प्रदेशे उत्तराखण्डे च अग्रिम दिनद्वयम् अतिवृष्टिः भविष्यति। पश्चिम एशियायां वर्धमानायाः चिन्तायाः मध्ये अमेरिकी विदेश सचिवः एंटोनी ब्लिंकेन इत्यनेन इजराइल विरुद्धं ईरान हिजबुल संघयोः संभाव्य प्रतिकार कार्याणां विषये G7 इत्यस्य विदेश मन्त्रिभ्यः कठोर चेतावनी प्रसारिता इति कथ्यते। हमास हिजबुल आततायी संघयोः प्रमुख व्यक्तीनां हत्यायाः अनन्तरं एषा चेतावनी प्रकटिता वर्तते। पेरिस ओलंपिक क्रीडायां शटल बैडमिंटन इत्यस्य पुरुष एकल क्रीडायां भारतस्य लक्ष्य सेनः मलेशिया देशस्य जीजिया ली इत्यनेन सह क्रीडित्वा कांस्य पदकं विजित्य भारतस्य गणनायां चतुर्थं पदकं योजयितुं प्रयतमानः वर्तते। अनेन लक्ष्य सेनः शटल बैडमिंटन पुरुष एकल क्रीडायां प्रप्रथमा पदक विजेता भविष्यति इति वार्ताः।